एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीयो पवेशेऽपि आगामिनः आर्थिक वर्षस्य आयव्ययक विषयकं विमर्शनं सततम् अचलत्। आयव्ययक विषयके विमर्शने सांसदाः मिश्रित प्रतिक्रियां व्यक्तवन्तः। सांसदाः आयव्ययकेन समाजवादस्य प्रारम्भिक स्वरूपं प्रस्तुतम् अस्तीति हेतोः एतस्य क्रियान्वयनाय सर्वकारेण विशेष ध्यानं देयमिति धारणाम् उपस्थापयन् इमे अवोचन् आयव्ययकं प्रगतिशीलं नास्ति, अनेन नैजक्षेत्रं योजयितुं न शक्तम्, शिक्षा स्वास्थ्ययोः क्षेत्रम् उचितरीत्या न सम्बोधितम्, एकात्मक राज्य प्रणाल्या आवासश्च प्रदर्शितः। सांसदाः सर्वकारस्य नीति कार्यक्रमाणाम् आयव्ययकस्य च मध्ये समन्वयो न दृष्टः, कर वृद्ध्यङ्काः राजस्व वृद्ध्यङ्काश्च समानाः सन्तीति उक्त्वा प्रश्नम् उदभावयन्। सांसदाः सार्वजनिक वित्त प्रणाल्याः सुधारस्य विषयस्य आयव्ययके समावेशनम् अनुकूलं मन्तव्यमिति धारणाम् उदैरयन्। तत्पूर्वम् उपवेशस्य शून्यसमये भाषमाणाः सांसदाः संघीय सर्वकारीय सेवाधिनियमस्य शीघ्रमानयनस्य, विद्यार्थी पंजीकरण शुल्क निर्धारणयोः एकरूपता निर्धारणस्य, स्वास्थ्य संस्थासु औषध जनशक्त्योः अभावस्य, कुलकङ्ग जातेः जन जात्याम् सूचीकरणाभावस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। एवमेव सांसदाः कृष्यनुदान दुरूपयोगस्य, उपत्यकायाः अभ्यन्तरे किरातवर्गीय जनानाम् सवव्यवस्थापनाय वर्षाणाम् पञ्चविंशतेः पूर्वम् धृतायाः सहमतेः क्रियान्वयनस्य, विद्युदापूर्ति न्यूनीकरण निवारणस्य च विषयेष्वपि सांसदाः सर्वकारस्य ध्यानाकर्षणम् व्यदधुः। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति। राष्ट्रिय सभाया उपवेशे आगामिनः आर्थिक वर्षस्य आयव्ययकम् आश्रित्य विधीयमानं विमर्शनम् इहोऽपि सततम् अचलत्। विमर्शने सहभागिनः सांसदाः अर्थतन्त्रे उत्पन्नाः समस्याः ध्यात्वा नीति कार्यक्रमाणाम् अनुरूपम् आयव्ययकस्य समन्वयं विधातुं बलं प्रादुः। सांसदाः अवोचन् विकास निर्माणयोः, कृषेः, ऊर्जसः, पर्यटनस्य, स्वास्थ्यस्य, युववृत्त्युपार्जनस्य, उत्पादनस्य च क्षेत्रेषु समानुपातिक विकासस्य नित्यनुरूपम् आयव्ययकस्य समावेशीकरणम् आवश्यकमस्ति। विमर्शने सांसदैः परामृष्टम् आयव्ययकस्य शोभनविषयं संस्थाप्य दुर्बलतां संशोधयितुं, रचनात्मक परामर्शान् ग्रहीतुं च सर्वकारेण अग्रेसरता प्रदर्शनीया। राष्ट्रस्य आर्थिकावस्थायाः सुदृढीकरणाय वित्तीय प्रणाल्याः सुधारस्य, अनुत्पादक क्षेत्रे अनिवेशनस्य, व्यय न्यूनीकरणाय अवलम्बितायां नीतौ कार्यक्रमेषु च निर्वाचन कार्यालयानां निरसनस्य, विभिन्नानां विंशतेः संस्थानां निरसनस्य च असंगतानां कार्यक्रमाणां सुधारार्थं सांसदाः परामर्शान् प्रादुः। तत्पूर्वं शून्यसमये सांसदाः भारत चैतेषु विभिन्नेषु देशेषु विद्यमानानां नेपाली राजदूतावासानां नाम सुधारस्य, कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य तथ्यान्वेषणस्य, चिकित्सालयेषु रुग्णै सह निवसतां सहयोगी जनानां वास व्यवस्थापनस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। एवमेव सांसदाः विपद संकट न्यूनीकरणस्य पूर्वकार्यं विधातव्यम्, हेटौडा स्म चूर्णोद्योगस्य व्यवस्थिततया सञ्चालनेन सह तत्र कार्यरतेभ्य कर्मचारिभ्य सेवानिवृत्तेः अनन्तरं प्राप्तव्यानि सौविध्यानि प्रदातव्यानि, देशस्य विभिन्नेषु स्थानेषु अनावृष्ट्याः, वर्धमानस्य तापक्रमस्य च कारणेन सर्वसाधारण जनानां जीवनम् अस्तव्यस्तं भूतम् इति हेतोः सहायतोद्धारयोः व्यवस्था विधातव्या चेति विषयान् आधृत्य सर्वकारस्य ध्यानम् आकर्षयन्। राष्ट्रियसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य आसन्न सार्धैकादशवादने वसति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति विकासस्य स्वरूपस्य विषये पुनर्विचारो विधेय। बुटवल स्थाने लुम्बिनी केवलकार वैद्युतयानम् इह उद्घाटयन् प्रधानमन्त्री प्रचण्डः। अधुनावधि सञ्चाल्यमानस्य अस्माकं विकास स्वरूपस्य विषयेऽपि पुनर्विचारः आवश्यकोऽस्तीति प्रत्यपादयत्। योजनाबद्ध विकासस्य अद्यतन प्रयासेभ्य भौतिक पूर्वाधार निर्माण, शिक्षा, स्वास्थ्य, लैंगिक समानता, समावेशिता प्रभृतिषु क्षेत्रेषु महत्वपूर्ण पूर्णोपलब्धिषु अधिगतासु सतिष्वपि उत्पादनस्य वृत्तिपार्जनस्य च क्षेत्रस्य प्रगतिः उत्साहजनिका नास्तीति हेतोः विकासस्य स्वरूपविषये पुनर्विचारः आवश्यको स्थिति प्रधानमन्त्री प्रचण्डः उदैरयत। असौ अगदत् विकासाय दलीय सहमतिः नैजक्षेत्रस्य सहकार्यञ्च आवश्यके स्तः। प्रधानमन्त्री दाहाला अर्थतन्त्रं गतिशीलं विधातुम् उद्योग व्यवसायं संकटात् रक्षितुं च अवरोधितं गृहभूम्या व्यवसायं पुनः सुचारू कर्तुं निर्णीतमिति असूचयत। प्रधानमन्त्री प्रचण्ड उच्च मुद्रास्फीत्या अस्थिरवृद्धि धनेन च राज्यस्य सामान्य नागरिकाणां च आयव्ययक प्रणाल्यां पारिश्रमिके उद्योगानां विकासे साधारण जनसमुदायस्य जीवनस्तरे च प्रतिकूल प्रभाव सृज्यते इत्यतः अत्र सर्वकारेण उपयुक्त निर्णयो विधास्यते इति विश्वासम् अदापयत। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा कथयति नेपाले नापि स्वस्य विपुला कारक नेपाल मानचित्रम प्रकाश्य स्वस्य अधिकारः अन्वेष्टव्यः। विराटनगर विमानस्थले यः पत्रकारैः भाषमाणः महामन्त्री थापा भारतेन सांस्कृतिक मानचित्रम प्रकाशयितुं शक्यते चेत् तर्हि नेपालेनापि विपुलाकारक ग्रेटर नेपालस्य मानचित्रम प्रकाशनीयम् इति विचारं व्यक्तवान्। तदवसरे महामन्त्री थापा लिम्पियाधुरा कालापानी लिपुलेक क्षेत्रेषु नेपालस्य अधिकारोऽस्ति केनापि बलात् नेतुं न शक्यते इति समस्पष्टयत्। महामन्त्री थापा अभाषत कांग्रेस दलस्य अभ्यन्तरे परिवर्तनम् इच्छुकानां मुख्यस्थलम् आगामिनि भाद्रमासे जायमानं नित्यधिवेशनं भविष्यति। महामन्त्री थापा नित्यधिवेशनेन दलस्य केषुचित् निर्णयेषु पुनर्विचाराय दलम् उचितस्थाने स्थापयितुं च दूरगामी निर्णय करिष्यते इति विश्वासं व्यक्तवान्। महामन्त्री थापा वर्तमान सर्वकाराय जनतया अनुभवनत्वेन कार्यं कर्तुं परामृष्टवान्। महामन्त्री थापा कांग्रेस दलेन वर्तमान गठबन्धनस्य सर्वकारस्य परिवर्तनस्य सम्बन्धे कश्चन विकल्प चिन्तितो नास्तीति स्पष्टीकृतवान्। नेपाली कांग्रेस दलस्य सभापतिना संसदीय दलस्य नेत्रा च शेरबहादुर देउवाभिदेन प्रतिनिधि सभाया सदस्य सुशीला थिङ प्रतिनिधि सभाया सचेतक पदे मनोनीता अस्ति। कांग्रेस दलस्य सभापतिना संसदीय दलस्य नेत्रा च देउवाभिदेन दलस्य विधानस्य अनुसारेण ह्य सांसद थिङ सचेतक पदे मनोनीतेति संसदीय दलस्य नेतुः सचिवालयस्य नैज सचिवेन केशवराज जोशिना प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। तराई क्षेत्रस्य विभिन्नेषु जनपदेषु लू नाम्नः प्रतप्त वायोः प्रवहणात् जनजीवनं कष्टकरं जायमानं वर्तते। तराई क्षेत्रे आदिवसं प्रचण्ड घर्मस्य कारणात् प्रतप्त वायोः सञ्चरणेन जनानां दैनिकोपार्जने काठिन्यं सृष्टमस्ति। तराई क्षेत्रे गतसप्ताहस्य सोमवासरात् औष्णं तीव्रं वर्धितं कतिभिर्दिवसैः प्रतप्त वायोः सञ्चरणं च प्रारब्धमिति हेतोः बालबालिकाः वृद्धवृद्धाः अशक्तव्यक्तयश्च आधिक्येन प्रभाविताः सन्ति। तापक्रमस्य 44 डिग्री सेल्सियस परिमाणात् उपरि प्राप्तेरनन्तरं श्रमिक कृषकेभ्यः कार्यसम्पादनाय समस्या सृष्टा वर्तते। प्रचण्ड घर्मस्य प्रतप्त वायोश्च कारणेन मार्गेषु आपणेषु च जनानां सक्रियता न्यूनायमाना वर्तते। औष्णस्य कारणेन अचेतावस्थां प्राप्तिः शिरसः कम्पनं पीडनं च ज्वरः सन्निपातः वमनं चेति संक्रमणस्य रुग्णानां सततं वर्धनस्य हेतोः पर्याप्त जलं पातुं प्रचण्ड घर्मस्य प्रतप्त वायोः सञ्चरणस्य च समये गृहे एव स्थातुं च चिकित्सकाः परामृशन्ति। गण्डकी प्रदेशसभायाः ह्यस्तनोपवेशेन प्रदेश सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः बहुमतेन पारितकृताः वर्तन्ते। उपवेशे सभामुखेन कृष्णप्रसाद धितालेन सर्वकारस्य नीति कार्यक्रमाणां निर्णयार्थं प्रस्तुतेः अनन्तरं प्रदेशसभायाः उपवेशेन बहुमतेन पारितकृताः वर्तन्ते।